अमरकोशे दिशां नामानि तदनन्तरं दिक्पतीनां विदिक्पतीनाम् अत्र उल्लेखः इन्द्रो वह्नेः पितृपतिर्निवृतो वरुणो मरुतो कुबेर ईशः पतयः पूर्वादीनां दिशाङ्क्रमात् अत्र इन्द्रादयः ईशान्ताः अष्टौ शब्दाः क्रमात् पूर्वादीनां दिशाम् एवं विदिशाञ्च पतयः नाम पूर्वदिगारभ्य इन्द्र अग्नियमनिर्वृतिवरुणवायुकुबेर ईशानादि एते अष्टावपि दिक् एवं विदिक् एतासां पतयः इति अनन्तरं दिग्गजानानां दिग्गजानानां नामानि अष्टौ दिग्गजाः सन्ति इति वयं जानीमः तेषाम् ऐरावतः पुण्डरीको वामनः कुमुदोञ्जनः पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ऐरावतः इरा नाम आपः अस्मिन् सन्ति इति इरावान् समुद्रः आपः अस्मिन् सन्ति इति इरावान् नाम समुद्रः इति तस्मिन् जातः ऐरावतः इति पुण्डरीकः पुण्डरीकवर्णत्वात् पुण्डरीकः पुनति शोभते इति वा पुण्डरीकः एवम् अन्यः अर्थः पुनशुभकर्मणि च इत्यस्मात् धातोः इदं पदं निष्पन्नम् अनन्तरं पुण्डरीकं नाम यथा वयं जानीमः श्वेतकमलम् इति अनन्तरं वामनः वामनत्वाद्वामनः अन्यः अर्थः वामं नाम वल्गुशरीरम् अस्य अस्ति इति वा वामनः इति शोभनं शरीरम् अस्य अस्ति इति वा वामनः कुमुदः तृतीयः गजः कुमुदः कुं नाम पृथ्वीं मोदयति इति कुमुदः मुदहर्षे इत्यस्मात् धातोः इदं पदं निष्पन्नं वामनः कुमुदोञ्जनः अञ्जनः अञ्जनाभत्वादञ्जनः अञ्जना इव आभा कान्तिः यस्य सः अञ्जनाभत्वात् अञ्जनः अनन्तरम् अन्यः अर्थः अपि अस्ति यत् आनक्ति गच्छति प्रकाशते वा इति अञ्जनः अञ्जु व्यक्तिश्लक्ष्णकान्तिगतिषु इत्यस्माद्धातोः एवम् इदं पदं निष्पन्नम् वामनः कुमुदोञ्जनः पुष्पदन्तः सार्वभौमः पुष्पदन्तः पुष्पवत् प्रकाशमानौ दन्तौ यस्य सः पुष्पदन्तः यथा वयं जानीमः गजस्य द्वौ दन्तौ भवतः तौ अस्य गजस्य पुष्पवत् प्रकाशमानौ अतः पुष्पदन्तः सार्वभौमः सर्वभूम्यां विदितः सार्वभौमः समस्त भूमण्डले अयं गजः विदितः ज्ञातः अतः सार्वभौमः इति अनन्तरं सुप्रतीकः शोभनाः प्रतीकाः नाम अवयवाः यस्य सः सुप्रतीकः शोभनाः अवयवाः सन्ति अस्य गजस्य अतः सुप्रतीकः इति उच्यते एते अष्टावपि अष्ट दिग्गजाः दिग्गजाः नाम दिक्षु गजाः दिग्गजाः इति